निषिद्धैरप्येभिर् लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्। मद्वियोगभयात् तातः परलोकं हितो गतः सहिष्ये विरहं तस्य वत्सस्य कथं पितुः। मद्वियोगभयात् मम विरहभयात् तातः अस्मात् लोकात् परलोकं गतवान् अहं तस्य तातस्य विरहं वियोगं कथं सहे, अहं कथं सहिष्ये इति अश्वत्थामः वदति। तदा कृपाचार्यः, वत्स, यावदयं संसारः तावत् प्रसिद्धा एव इयं लोकयात्रा, यत् पुत्रैः पितरो लोकद्वये अपि अनुवर्तनीयाः इति। यावत् कालपर्यन्तम् अयं संसारः अस्ति तावत् कालपर्यन्तम् अस्यां लोकयात्रायाम् एषः विषयः वर्तते यत् पुत्राः एव पितरम् अनुवर्तेरन् इति। यावत् कालं पितरः जीवन्ति तावत् पर्यन्तं पुत्राणां मरणं न सम्भवेत् इति आसीत् तस्मिन् काले। यदि तादृशं पुत्रस्य पितरि जीवति सति यदि पुत्रस्य मरणं सम्भवति तर्हि तस्मिन् काले तस्मिन् समये यः राजा शासनं करोति तस्य राज्ञः दोषः इति उच्यते। नो चेत् कुत्रापि देशे अनिष्टः जातः, तस्मात् कारणात् एव पुत्रस्य मरणं पितुः पूर्वमेव अभवत् इत्यपि एक लोकनीतिः आसीत् तस्मिन् काले। द्वापरायुगपर्यन्तं तादृशमेव आसीत् इति। अतः यावत् अयं संसारः, यावत् कालपर्यन्तम् अयं संसारः अस्ति तावत् तावत् कालपर्यन्तम् इयं लोकयात्रा प्रसिद्धा भवति। एतादृशलोकस्थितिः अथवा लोकनियतिः प्रसिद्धा वर्तते। का सा इत्युक्ते पितरः लोकद्वये अपि पुत्रैः अनुवर्तनीयाः इति। लोकद्वये नाम इहलोकः परलोकः, द्वयोः अपि लोकयोः पितरः पुत्रैः अनुवर्तनीयाः इति लोकनियतिः अस्ति। इहलोके चेत् अस्मिन् लोके पितरः यत् कुर्वन्ति तदेव अनुवर्तन्ते पुत्राः अपि। मरणमपि पितरः प्रथमं मरणं प्राप्नुवन्ति तदनन्तरमेव पुत्राणामपि मरणं सम्भवेत् इति। पश्य, निवाप अञ्जलिदानेन केतनैः श्राद्धकर्मभिः तस्य उपकारे शक्तः त्वं किं जीवन् किमुत अन्यथा। श्राद्धकर्म श्रद्धया यत् क्रियते तदेव श्राद्धम् इति उच्यते। निवाप अञ्जलिदानेन नाम तिलतर्पण विधानेन केतनैः, केतनैः नाम श्राद्धकर्मसु क्रियमाणदानादि कार्यैः श्राद्धकर्मभिः त्वं जीवन् तस्य उपकारे शक्तः। नाम यदि भवान् पितुः अग्निसंस्कारम् अनन्तरं श्राद्धकर्मादीनि कार्याणि जीवन् एव कर्तुं शक्नोति, यदि जीवनं त्यजति चेत् एतादृशानि कर्माणि कर्तुं न शक्नोति भवान्। निवापञ्जलिदानेन इति तिलसहितं जलं यत् तर्पणसमये दीयते तद् निवाप अञ्जलिदानम् इति उच्यते। केतनैः इत्युक्ते अत्र धनधान्य दक्षिणादिरूपेण यत् दानं क्रियते तद् केतनम् इति उच्यते। श्राद्धकर्म इत्युक्ते होमादि संस्कारसम्बन्ध होमादिकार्याणि श्राद्धकर्माणि इति उच्यते। एतैः तस्य पितुः उपकारे नाम संस्कारकरणे संस्कारकरणे नाम कस्यचित् आत्मनः अपि द्विचत्वारिंशत् संस्काराः सन्ति. तत्र केचन संस्काराः पितृभिः क्रियमाणाः संस्काराः, केचन संस्काराः पुत्रैः क्रियमाणाः संस्काराः इति भवन्ति. तत्र पुत्रैः क्रियमाणाः संस्काराः सन्ति श्राद्धादि संस्काराः इति. एतादृशे श्राद्धकर्म विधायक उपकारे किं जीवन् त्वं शक्तः उत अन्यथा, भवान् जीवन् जीवति चेत्येव एतादृश श्राद्धादिकर्मसंस्कारं कर्तुं शक्नोति, उत अन्यथा यदि भवान् जीवनं त्यजति चेत्, आत्महत्यां करोति चेत्, एतत् सर्वम् एतादृशम् उपकारं तव पितुः कथं वा कर्तुं शक्नोति. अतः किं जीवन् शक्तः त्वम् उत अन्यथा कर्तुं शक्नोति वा, नो चेत् जीवनं त्यजति चेत् एतत् सर्वं कर्तुं शक्नोति वा इति पृच्छति कृपाचार्यः. व्याख्यां पठामः. निवापञ्जलिदानेन निवापः पितृदानं तर्पणादिकं, तस्य अञ्जलिः जलाञ्जलिः, तस्य दानं प्रदानं तेन केतनैः श्राद्धकर्मभिः, श्राद्ध अङ्गभूतब्राह्मणभोजनादिभिः तस्य मृतात्मनः उपकारे कल्याणे त्वं भवान् जीवन् शक्तः, जीवितुं धारयन् समर्थः किम्, उत अथवा मृतः सन् शक्तः समर्थः असि, जीवन्नेव श्राद्धादिकं कर्म कर्तुं समर्थः, न तु मृतः सन् इति भावः. एतदपि ईयासि ससन्दर्भं व्याख्यात इति प्रश्ने भवितुमर्हति. सूतः आयुष्मन् यथैव मातुलस्थे शारद्वतः कथयति तत्तथा, यथा भवतः मातुलः शारद्वतः नाम कृपाचार्यः वदति तत्तथा, तद् सत्यमेव, तदेव मम अपि अभिप्रायः इति अर्थः. यदा सूतः अश्वत्थामानं सम्बोधयति तदा आयुष्मन् इति सम्बोधयति, अतः तद् द्रष्टव्यमस्ति. आयुष्मन् भवान्, आयुष्मान् अस्ति भवान्, दीर्घम् आयुः भवान् जीवति, अतः इदानीम् आत्महत्यां कर्तुं न प्रभवेत् इति सूक्ष्मतया अत्र सूतः अपि सूचयति. अश्वत्थाम आर्य सत्यमेव इदं, किन्तु अतिदुर्गहत्वात् शोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान् धारयितुम्. अश्वत्थाम वदति सत्यमेव इदं, नाम यत् कृपाचार्यः उक्तवान् तद् सत्यमेव इति वदति. कृपाचार्यः किम् उक्तवान्? श्राद्धकर्मभिः पितुः उपकारः करणीयः इति उक्तवान्. तत्सर्वं करणीयमेव, तत् सत्यम् अहं अङ्गीकरोमि एव. पुत्रैः मृतस्य पितुः निवापञ्जलिप्रदानेन केतनैः श्राद्धकर्मभिः उपकारः तु करणीयः एव, किन्तु शोकभारस्य तस्य पितुः वियोगेन जनितः शोकः अस्ति किल, तस्य भारस्य दुर्वहत्वात्, दुर्वहः नाम अहं वोढुम् अशक्तत्वात्, एतादृशं भारं स्वीकर्तुम् अहम् असमर्थः अस्मि, तस्मात् तातविरहितः क्षणमपि प्राणान् धारयितुं न शक्नोमि इति अन्वयः. शोकभारस्य दुर्वहत्वात् तातविरहितः क्षणमपि प्राणान् धारयितुं न शक्नोमि. शोकभारस्य दुर्वहत्वात् अस्य वियोगशोकस्य भारः अत्यधिकः अस्ति, तस्य भारस्य दुर्वहणं भारस्य वहने अहम् असमर्थः अस्मि, अतः तातविरहितः तातेन विरहं प्राप्तः अहं क्षणमपि एकं क्षणमपि प्राणान् धारयितुं मम जीवनं धारयितुम् अहं न शक्नोमि. तद्गच्छामि तमेव उद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि. तस्मात् शोकभारस्य दुर्वहत्वात् प्राणान् धारयितुम् अशक्तत्वात् तमेव उद्देशं नाम डेस्टिनेशन् अथवा गोल्, तमेव देशं गच्छामि, तमेव लोकम् अहमपि गच्छामि, यत्र मम पिता तथाविधमपि पितरं द्रक्ष्यामि, तथा मृतं पितरमपि, तथाविधं पितरं मृतं पितरमपि यत्र अहं द्रष्टुं शक्नोमि, तमेव देशम् अहं गच्छामि इति उत्तिष्ठन् खड्गम् आलोक्य विचिन्त्य, तर्हि स्वस्य खड्गं पश्यति तत् स्वीकरणीयं वा न वा इति विचिन्त्य, कृतम् अद्यापि शस्त्रग्रहणविडम्बनया, नाम कृतम् अद्यापि शस्त्रग्रहण आयुधग्रहणे विडम्बना नाम क्रीडा इति स्वीकर्तुं शक्यते, क्रीडया अद्यापि कृतम् इत्युक्ते इदानीं किमर्थं शस्त्रग्रहणं करणीयं वा इति तस्य चिन्तनमस्ति, सहस्र अञ्जलिं बद्ध्वा भगवन् शस्त्र इति शस्त्रं सम्बुध्य इमं श्लोकं वदति, सहस्रम् अञ्जलिं बद्ध्वा नाम शस्त्रम् उद्दिश्य अञ्जलिमुद्रां विधाय वदति श्लोकं, गृहीतं येनासीहि परिभवभयात् न उचितमपि प्रभावात् यस्य आसीत् न खलु तव कश्चिन्न विषयः परित्यक्तं येन त्वमसि सुतशोकात् न तु भयात् विमोक्ष्ये शस्त्र त्वाम् अहमपि यतः स्वस्ति भवते। यः खड्गः प्रथमं स्वीकृतः द्रोणाचार्येण, पुनः यः खड्गः द्रोणाचार्येण त्यक्तः आसीत् तादृशं खड्गम् अहमपि त्यजामि, मङ्गलं भवतु इति वदति, तदेव येन परिभवभयात् न उचितमपि गृहीतः आसीः, येन द्रोणाचार्येण पित्रा तातेन परिभवभयात् पराजयं भविष्यति भवेत् इति भयात्, नाम दुर्योधनस्य पराजयः भविष्यति इति कारणात् इति भयात् न उचितमपि अनुचितमपि येन गृहीतम् असीः शस्त्रमिति कारणात् गृहीतम् इति नपुंसकप्रयोगः, येन त्वं गृहीतम् आसीः, अनन्तरं तदेव शस्त्रं पुत्रशोकात् पित्रा त्यक्तं न तु परिभवात् वा पराजयात् वा, पुत्रशोकात् त्यक्तं तादृशम् अस्त्रम् असि त्वं हे शस्त्र अहं त्वाम् अहमपि त्वां त्यजामि, भवते मङ्गलं भवतु। येन द्रोणाचार्येण परिभवभयात् दुर्योधनपक्षस्य पराजयभवात् न उचितमपि अनुचितमपि, नाम ब्राह्मणेन शस्त्रग्रहणं न उचितम्, अतः औचित्यं कार्यम् अपि त्वं तेन गृहीतम् आसीः, नाम यु वेर् टेकिन् बै हिम् इति अर्थे, द्रोणाचार्येण त्वं गृहीतम् आसीः शस्त्रं गृहीतम् आसीः, अनन्तरं यस्य प्रभावात् यस्य द्रोणाचार्यस्य प्रभावात् तव कश्चित् विषयः न खलु न विषयः न आसीत् इति न आसीत् इति न कश्चित् विषयः न आसीत् इति न, नाम विषयः नाम प्रत्यक्षविषयः यदि नेत्रेण द्रष्टुं शक्यः आसीत् इति, नाम अत्र शस्त्रस्य विषयः इत्युक्ते विषयः इति प्रत्यक्षविषयः नाम दाट् विच् इस् एन् आब्जेक्ट् टु इट् इति अर्थः, नाम नेत्रेण प्रत्यक्षं दृश्यमानं वस्तु प्रत्यक्षविषयः भवति इति, नाम अत्र कश्चित् विषयः तव कश्चित् विषयः न आसीत् इति न इति वदति, नाम सर्वमपि विषयम् आसीत् इति अर्थे, सर्वमपि विषयः आसीत् नाम भवान् सर्वं द्रष्टुं शक्तवान्, नाम त्वया सर्वं द्रष्टुं शक्यम् आसीत् नाम अत्र शस्त्र इति कारणेन सर्वं द्रष्टुं शक्यमासीत् त्वया इत्युक्ते सर्वान् मारयितुं सामर्थ्यम् आसीत् तव इति अर्थः. तस्य कारणं तु द्रोणाचार्यस्य प्रभावः इति वदति. अहं यस्य प्रभावात् यस्य द्रोणाचार्यस्य प्रभावात् कश्चित्तपि तव विषयः न आसीत् इति न खलु, नाम सर्वमपि तव विषयः आसीत्, नाम भवान् हे शस्त्र त्वया सर्वान् मारयितुं शक्यम् आसीत् तस्य प्रभावेन, मम पितुः प्रभावेन इति अर्थः. अत्र शस्त्रस्य विषयः इत्युक्ते शत्रुः इति स्वीकरणीयः. शस्त्रस्य विषयः शत्रुः, अतः सर्वान् शत्रून् मारयितुं सामर्थ्यम् आसीत् तव तस्य द्रोणाचार्यस्य प्रभावेन. येन त्वं सुतशोकात् न तु भयात् परित्यक्तम् असि. अत्र येन इति अस्ति, तत् तेन इति परिवर्तनं कुर्मः, कारणं येन इति प्रथमायां पङ्क्त्याम् अस्ति, अतः तेन इति अत्र भवति चेत् इतोपि सरलं भवति अर्थः. अतः तेन पित्रा, अत्रेण मम तातेन भयात् न परित्यक्तम् असि त्वं, किन्तु सुतशोकात् पुत्रशोकात्, पुत्रः मरणं प्राप्तः इति शोकात् तेन पित्रा त्वं परित्यक्तम् असि. त्वं नाम परित्यक्तं नाम विसृष्टम् असि. हे तादृशं शस्त्र, अहमपि त्वां विमोक्ष्ये. मम पिता पूर्वं पुत्रशोकात् त्वां त्यक्तवान्, अतः अहमपि त्वां त्यजामि, अहमपि त्वां त्यक्ष्यामि विमोक्ष्ये इति. यतः स्वस्ति भवते, कारणं तव मङ्गलं भवतु, तुभ्यं मङ्गलं भवतु इति व्याख्यां पठामः. येन पित्रा परिभवभयात्, परिभवस्य तिरस्कारस्य भयं भीतिः, तस्मात् न उचितम् अयुक्तम् अपि त्वं शस्त्रं गृहीतम् अधिकृतम् आसीः. ब्राह्मणत्वात् क्षत्रियग्रहण उचितमतित्वं ग्रहणकृतम् आसीः. यस्य प्रभावात् यस्य सामर्थ्यात् कश्चित् कोऽपि तव ते विषयः लक्ष्यः न आसीत् इति, एतत् न खलु, नैवं नूनं नैव. तेन तथाविधेन बलिना पित्रा त्वं शस्त्रं सुतशोकात् पुत्रवियोगदुःखात् न तु भयात्, भयात्तु नैव परित्यक्तम् असि विसृष्टम् असि. हे शस्त्र अयि आयुध, अहम् अश्वत्थामा अपि त्वां शस्त्रं विमोक्ष्ये परित्यजामि. यतः यस्मात् भवते ते स्वस्ति, कल्याणं भवतु. अत्र परिसङ्ख्या अलङ्कारः, कश्चित् कारणस्य निषेधं कृत्वा अन्यस्य कार्यस्य परिग्रहणं परिसङ्ख्या अलङ्कारः इति उच्यते. अत्र न भयात् इति भयस्य कारणं निषिध्य, सुतशोकात् इति सुतस्य शोकमेव कारणम् इति परिग्रहणात् अत्र परिसङ्ख्या अलङ्कारः. इदानीम् इति उत्सृजति, शस्त्रम् उत्सृजति. नेपथ्ये भो राजानः कथम् इह भवन्तः सर्वे क्षत्रियगुरोः भारद्वाजस्य असदृशं परिभवम् अमुना नृशंसेन प्रयुक्तम् उपेक्षन्ते. नेपथ्यात् कश्चित् ध्वनिः श्रूयते. हे भो राजानः, तत्र विद्यमानान् राज्ञः सम्बुध्य, कथं भवन्तः सर्वे इह अत्र क्षत्रियगुरोः भारद्वाजस्य असदृशं परिभवम् अमुना नृशंसेन प्रयुक्तम् उपेक्षन्ते. क्षत्रियगुरोः भारद्वाजस्य एवं स्वीकरणीयम्, अमुना नृशंसेन प्रयुक्तम् असदृशं क्षत्रियगुरोः भारद्वाजस्य असदृशं परिभवं भवन्तः सर्वे कथम् उपेक्षन्ते इति अन्वयः करणीयः. अर्थात् भवन्तः सर्वे क्षत्रियगुरोः नवक्षत्रियाणां गुरुः अस्ति द्रोणाचार्यः, तस्य भारद्वाजस्य भारद्वाजः इति भरद्वाजगोत्रे जातः भारद्वाजः इति द्रोणाचार्यस्य नाम। असदृशं परिभवम् अनुचितम् अपमानम् अथवा पराजयं भवन्तः कथम् उपेक्षन्ते इति, केन प्रयुक्तं तत् परिभवम् इत्युक्ते अमुना नृशंसेन, नृशंसः नाम क्रूरः कठोरः इति, कः अत्र क्रूरः इत्युक्ते दृष्टद्युम्नः, अतः अमुना नृशंसेन क्रूरेण दृष्टद्युम्ना प्रयुक्तं कृतम् असदृशं परिभवम् अनुचितं भीषणं कार्यं परिभवम् अपमानं भवन्तः सर्वे कथं सहन्ते इति नेपथ्यात् ध्वनिः श्रूयते। तं ध्वनिं श्रुत्वा आकर्ण्य अश्वत्थामा सक्रोधं शनैः शनैः शस्त्रं स्पृशन्। इदानीं पश्यामश्चेत् इतः पूर्वं ये श्लोकाः पठिताः तत्र तेषु श्लोकेषु किं ज्ञायते इत्युक्ते, यदा यदा अश्वत्थामा मूर्छितः जातः, मूर्छनां प्राप्तः आसीत्, तदा एव कृपाचार्यः द्रोणाचार्यस्य केशग्रहविषयं वदन् आगच्छति स्म। नाम तदा द्रौपद्याः केशग्रहः सञ्जातः, अद्य जातः, अद्य द्रोणाचार्यस्य केशग्रहः अभवत् इति यदा कृपाचार्यः वदन् आगच्छति तदा अश्वत्थामा मूर्छितः आसीत्, अतः न श्रुतवान्। तदनन्तरं यदा सः मूर्छनात् संज्ञां लब्धवान् तदनन्तरं सः केवलं यदा पिता द्रोणाचार्यः सुतशोकात् शस्त्रं त्यक्तवान् तदा तस्य मरणं जातम् इति मात्रं सः जानाति। केन प्रकारेण सः पितरं परिभूय मरणं कारितवन्तः इति विषयं सः न जानाति स्म। इदानीं परिभवमिति पदं श्रुत्वा तस्य क्रोधः जातः, किं गुरोः भारद्वाजस्य परिभवः, मम पिता पितुः द्रोणाचार्यस्य परिभवः कृतः, अपमानः कृतः इति चिन्तयति। तदा पुनः नेपथ्यात् श्रूयते आचार्यस्य त्रिभुवनगुरोः न्यस्तशस्त्रस्य शोकात् द्रोणस्य आजौ नयनसलिलक्षालित आर्द्र आननस्य मौलौ पाणिं फलितधवले न्यस्य कृत्वा नृशंसम् दृष्टद्युम्नः स्वशिबिरम् अयं याति सर्वे सहध्वम्। नाम शोकात् त्यक्तशस्त्रस्य द्रोणाचार्यस्य मौलौ नाम मूर्धनि हस्तं संस्थाप्य क्रूरं कर्म कृत्वा एषः दृष्टद्युम्नः पुनः स्वशिबिरं गच्छति, भवन्तः सर्वे यूयं सहध्वम्। सहद्वं किम् इति पृच्छति, सहद्वे इति कथं सहन्ते भवन्तः इति अर्थे। आचार्यस्य त्रिभुवनगुरोः त्रयाणामपि भुवनानां गुरुः अस्ति द्रोणाचार्यः तस्य, पुनः शोकात् न्यस्तशस्त्रस्य शोकात् त्यक्तशस्त्रः अस्ति द्रोणाचार्यः, तादृशस्य त्यक्तशस्त्रस्य त्यक्त आयुधस्य द्रोणाचार्यस्य नयनसलिलक्षालित आर्द्र आननस्य, नयनसलिलं नाम नेत्रजलम् अश्रु, तेन नयनसलिलेन नयनजलेन क्षालितम् अस्ति तस्य आर्द्र आननं नाम शोकात् रोदनं कृतवान् स्यात्, तस्मात् मुखम् आर्द्रमस्ति, तस्य मुखं वेट् अस्ति, तं तत् आर्द्रमुखं नयनसलिलेन क्षालितम् आर्द्र आननम् नाम नयनसलिलेन क्षालितं नाम अत्र मार्जितं तस्य आर्द्रम् आरणं यस्य अस्ति तादृशस्य द्रोणस्य आजौ युद्धे मौलौ पलितधवले मौलौ पाणिं यस्य, कीदृशे मौलौ मौलिः इत्यस्य सप्तमी विभक्तिः मौलौ नाममस्तके इति अर्थः, पलितधवले नाम पलितम् इत्युक्ते नरै जरा, अतः एव धवलम् अस्ति, धवलं नाम श्वेतवर्णः अस्ति तस्य केशः, तादृशे मौलौ पलिताः धवलः यस्मिन् सः इति पलितधवले मौले पाणिम्यस्य हस्तं स्थापयित्वा नृशंसं कृत्वा, नृशंसं नाम कठोरं कर्म अथवा क्रूरं कर्म, क्रूरं कार्यं कृत्वा अयं दृष्टद्युम्नः, एषः दृष्टद्युम्नः स्वशिबिरं याति, तस्य शिबिरं पुनः गच्छति यूयं कथं सहध्वं, सर्वे भवन्तः सर्वे कथम् एतत् सहन्ते इति व्याख्यां पठामः. आजौ युद्धे शोकात् दुःखात् न्यस्तशस्त्रस्य, न्यस्तं परित्यक्तं शस्त्रम् आयुधं येन सह तस्य, नयनसलिलक्षालित आर्द्र आननस्य, नयनसलिलेन नेत्राम्बुना क्षालितं धौतम् आननं मुखं यस्य सः तस्य, आचार्यस्य गुरोः द्रोणस्य भारद्वाजस्य, पलितधवले पलितेन जरसा धवले शुभ्रे मौलौ शिरसि पाणिं हस्तं न्यस्य स्थाप्य नृशंसं क्रूरकर्म कृत्वा विधाय अयम् एषः दृष्टद्युम्नः द्रुपदसुतः स्वशिबिरम् आत्मसैन्यस्थलं याति गच्छति कथं सर्वे यूयं सर्वे अपि सहध्वं सहनं कुरुथ. एतद् कथम् इति पृच्छति.